सर्वेभ्यो नमः. गीतासोपनवर्गे सर्वेषां स्वागतं. गतवर्गे वयं द्वितीयविभक्ति इति विषये एकां कथां पठितवन्तः. गीतोपदेशप्रसङ्गः इति कथा. तस्यां कथायां अनेकानि द्वितीयविभक्त्यन्तपदानि आसन्. तां कथाम् आधाय अभ्यासं प्रथम अभ्यासमपि कृतवन्तः. अनेकाः प्रश्नाः सन्ति तत्र पुटसङ्ख्या 108 मध्ये. सर्वान् प्रश्नान् उत्तरं प्राप्तवन्तः. सर्वेषां प्रश्नानाम् उत्तरं प्राप्तवन्तः इति मन्ये. तत्र केवलं पुनःस्मरणार्थं तत्र द्वितीयाविभक्तिरूपस्य पुनःस्मरणं कृत्वा अग्रे गच्छामः. तदनन्तरं नूतनविषयः आयाति, लृट् लकारः इति. किन्तु प्रथमतया तत्र द्वितीयाविभक्तिरूपं एकवारं पश्यामः. तत्र पाठः इति तत्र प्रथमविभक्तिरूपम् अपि द्वितीयविभक्तिरूपं तत्र शुभ भगिनी वदति वा पाठः इति?
आं महोदय, पाठः पाठौ पाठाः पाठाः. द्वितीयविभक्तिरूपं पाठं पाठौ पाठान्
पाठान्. समीचीनं भगिनि, अस्तु. गीताञ्जलि भगिनि, ग्रन्थः
ग्रन्थः ग्रन्थौ ग्रन्थाः ग्रन्थं ग्रन्थौ ग्रन्थान्.
हा, समीचीनं भगिनि, अस्तु. बालचेतनी महोदय, विद्यालयः
विद्यालयः विद्यालयौ विद्यालयाः प्रथम द्वितीय विद्यालयं विद्यालयौ विद्यालयान्.
हा, समीचीनम्. उमा भगिनी, सप्ताहः
सप्ताहः सप्ताहौ सप्ताहाः प्रथम, तदनन्तरं सप्ताहं सप्ताहौ सप्ताहान्.
हा, समीचीनं भगिनी, द्वितीय, अस्तु. शोभा भगिनी, नमस्कारः.
नमस्कारः महोदय.
नमस्कारः भगिनी. प्रथम अपि द्वितीयविभक्तिरूपं तत्र दिनाङ्कः इति.
आम्, दिनाङ्कः दिनाङ्कौ दिनाङ्काः दिनाङ्कं दिनाङ्कौ दिनाङ्कान्.
हा इति, समीचीनं भगिनी, अस्तु. इदानीं तत्र आकारान्त स्त्रीलिङ्गपदं तस्यापि किञ्चित् पुनःस्मरणं. तत्र गीताञ्जलि भगिनी, कथा इति.
कथा कथे कथाः कथां कथे कथां कथे कथाः.
समीचीनं भगिनि, अस्तु अस्तु. शुभा भगिनि, वार्ता इति. शुभा भगिनि, वार्ता.
आं महोदय, वार्ता इति
स्त्रीलिङ्ग आकारान्त स्त्रीलिङ्गपदं प्रथम अपि द्वितीयविभक्तिरूपं.
वार्ता वार्ते वार्ताः वार्तां वार्ते वार्ताः.
हा, समीचीनं भगिनि, अस्तु. बालचेतनी महोदय, तत्र पाठशाला.
महोदय, पाठशाला पाठशाले पाठशालाः प्रथम, पाठशालां पाठशाले पाठशालाः.
एकवचने एव तत्र भेदः भवति, भेदः भवति, अन्यत्र भेदः नास्ति. समीचीनं महोदय, सत्यं. हा, समानं. हा, अस्तु. उमा भगिनी, तत्र वाटिका.
वाटिका, ओके, वाटिका वाटिके वाटिकाः प्रथमा, वाटिकां वाटिके वाटिकाः द्वितीया.
समीचीनं भगिनि, धन्यवादः, अस्तु. शोभा भगिनि, महिला.
महिला महिला महिले महिलाः महिलां महिले महिलाः.
समीचीनं भगिनि, अस्तु. वंशीसुधा भगिनी, नमस्कारः. अस्तु अस्तु, तत्र पुनः केवलम् ईकारान्तस्त्रीलिङ्गपदं तत् अपि एकवारं तस्य अपि पुनस्मरणं कृत्वा अग्रे गच्छामः. तत्र ईकारान्तस्त्रीलिङ्गपदं हा बनचेतनि महोदय नगरी
महोदय
नगरी
नगरी
नगरी दीर्घ नदीवत् नदीवत् नदी नद्यौ नद्यः
महोदय आम् महोदय नगर महोदय नगरी नगर नगर द्विवचनं महोदय क्षम्यतां महोदय अहं तृतीय
तत्र नदी नद्यौ नद्यः अतः नगरी
नगर्यौ नगर्यौ नगरीः
न न न द्वितीयविभक्ति अस्तु अस्तु किन्तु प्रथमविभक्तिरूपम् एकवारं वदतु
एकवारम् आं महोदय नगरी नगर्यौ नगर्यः
हा इदानीं द्वितीयविभक्तिरूपं
नगरीं
नगरीं
नगरीं नगर्यौ नगरीः
नगरीः समीचीनं
अत्र तु एकवचने अपि भेदः अस्ति बहुवचने अपि भेदः अस्ति ईकारान्तस्त्रीलिङ्ग अस्ति
सत्यं महोदय केवलं द्विवचने परिवर्तनं न भवति
समानमेव
हा समानरूपम् अस्ति सत्यं महोदय धन्यवादः अस्तु शुभा भगिनी तत्र काशी इति
काशी काश्यौ काश्यः काशीं काश्यौ काशीः
काशीः अस्तु समीचीनं हा उमा भगिनी मयूरी इति
मयूरी मयूर्यौ मयूर्यः मयूरीं मयूर्यौ मयूरीः
मयूरीः हा समीचीनं भगिनि हा गीताञ्जलि भगिनि तत्र कौमुदी इति
कौमुदी कौमुद्यौ कौमुद्यः कौमुदीं कौमुद्यौ कौमुदीः
हा समीचीनम् अस्तु शोभा भगिनि तत्र विद्यार्थिनी
विद्यार्थिनी विद्यार्थिनी विद्यार्थिन्यौ विद्यार्थिन्यः विद्यार्थीं विद्यार्थ्यौ विद्यार्थीः विद्यार्थिनीः
विद्यार्थिनीं
विद्यार्थिन्यौ विद्यार्थिनीः
विद्यार्थिनीः समीचीनं भगिनि अस्तु अस्तु तावदेव एकवारं तत्र रूपस्य पुनस्मरणं जातम् इदानीं तत्र अभ्यासद्वयमस्ति तद् गृहपाठेन कृतवन्तः सर्वे किन्तु एकवारं तत्र वर्गे कृत्वा अग्रे गच्छामः अस्तु तर्हि तत्र गीताञ्जलि भगिनी आरम्भं करोति वा द्वितीय अभ्यासः पुटसङ्ख्या 109
आम् महोदय एतेषां शब्दानां विभक्तिं वचनं च लिखत यथा पाण्डवानां षष्टिविभक्तिः बहुवचनम् सेनयोः सेनयोः सेना स्त्रीलिङ्ग षष्टी अपि च सप्तमी द्विवचन रूपे सेनयोः
द्विवचनं अस्तु भगिनि अस्तु समीचीनम् अस्तु तत्र रक्तवर्णे यत् वाक्यं भवती पठितवती तत्र किं किं भवति तत्र किं किम् अस्ति
रक्तवर्णे एतेषाम् इति षष्टि बहुवचन शब्दानां षष्टि बहुवचन विभक्तिं वचनं कर्मपदं विशेषविशेषणं भाव च लिखत लिखत इत्युक्ते महोदय लिखत लिखत
लोट् बहुवचन
लोट्लकार
बहुवचन
बहुवचन पुरुषः मध्यमपुरुष मध्यमपुरुष समीचीन भगिनी. किन्तु तत्र विभक्तिम् अपि वचनं तत्र सम्बन्धः अस्ति वा?
एतेषां शब्दानां विभक्तिं न महोदय, च
च इति अस्ति तत्र विशेषणविशेषभाव विभक्ति भिन्ना अपि वचनं भिन्नं खलु. केवलं किन्तु कर्मपदमेव सत्यं. अपि एतेषाम् इति अस्ति तत्र प्रथमविभक्तिरूपं किम्?
प्रथमविभक्ति
एषः एकवचने, किन्तु अत्र बहुवचने अस्ति, अतः एषः एतौ
एते
तावदेव समीचीनं भगिनी. एते शब्दाः
अस्तु, एते शब्दाः
तस्य षष्टि भवति एतेषां
शब्दानाम्
इति. समीचीनं भगिनी, अस्तु. हा शयनयोः कृतवती, समीचीनं भगिनी, धन्यवादः. अस्तु अग्रे बाणचत्री महोदय द्वितीयं करोति वा? युद्धभूमौ इति
महोदय, युद्धभूमौ युद्धभूमिः इति इकारान्त स्त्रीलिङ्गम् इति मन्ये महोदय, अतः युद्धभूमौ. औ कथं भवति, युद्धभूमिः वा महोदय?
युद्धभूमिः अत्र केवलं द्वितीयविभक्ति इति
युद्धभूमौ तु सप्तमी एव,
सप्तमी एव इति मन्ये तत्र, सप्तमी एव महोदय. तत्र मिश्रित अभ्यासः अस्ति, तत्र केवलं द्वितीय इति नास्ति. युद्धभूमौ सप्तमी वचनं,
एकवचनं
समीचीनं महोदय. तत्र अत्रैव अभ्यासः किम् आसीत् तत्र, एतेषां शब्दानां विभक्तिं वचनं च लिखत, अतः सर्वदा द्वितीयविभक्ति इति नास्ति खलु.
किमपि विभक्तिं वा किमपि,
कापि विभक्ति किमपि वचनं. अस्तु अग्रे अग्रे शोभा भगिनी तृतीयं तत्र.
आम् महोदय, महोदय वंशसुधा भगिनी वक्तुम् इच्छति, प्रयत्नं कृतवती, किमपि प्राब्लम् अस्ति महोदय?
अस्तु अस्तु भगिनी, तत्र न श्रूयते खलु वंशसुधां, वयं न तस्य वाणी तत्र नास्ति अत्र,
टेक्स्ट् मध्ये प्रेषितवती महोदय.
अस्तु भगिनी, अस्तु भगिनी, धन्यवादः. न जानामि, किन्तु सा श्रोतुं शक्नोति वा?
आम् महोदय,
अस्तु
भवती पुनरेकवारं लागिन् करोति इति.
अस्तु अस्तु अस्तु, ओके ओके, अस्तु अस्तु, समीचीनं भगिनि, अस्तु धन्यवादः. अस्तु
तत्र विषयान् अस्ति वा महोदय?
विषयान्, सत्यं,
विषयान् विषयान् द्वितीय बहुवचने अस्ति, तस्य विषयः विषयं प्रथम द्वितीय एकवचने अस्ति महोदय.
समीचीनं, विषयः अकारान्त पुल्लिङ्ग पदं, समीचीनं,
विषयाः विषयान् बहुवचने,
प्रथमविभक्ति बहुवचने विषयाः, समीचीनं समीचीनम्. अस्तु अग्रे शुभा भगिनी.
महोदय, विश्वरूपदर्शनेन तृतीय एकवचनं विश्वरूपदर्शनं इति नपुंसकलिङ्गपदं.
समीचीनं भगिनि, समीचीनं. उमा भगिनी अग्रे.
कौरवाणां षष्टि बहुवचनं,
समीचीनं भगिनि. तत्र प्रथमविभक्तौ एकवचने किं रूपं?
कौरवः,
कौरवः, अकारन्त पुल्लिङ्गपदं, समीचीनं भगिनि, अकारन्त पुल्लिङ्गपदं, समीचीनं भगिनि. अस्तु अग्रे भानुचित्रि महोदय, अर्जुनाय इति.
महोदय, अर्जुनः इति पुल्लिङ्गः प्रथम,
प्रथमविभक्ति एकवचनरूप,
रामाय,
अतः विभक्तिका
चतुर्थी प्रथमा, चतुर्थी एकवचनम्,
एकवचनं समीचीनं महोदय, समीचीनम् अस्तु। हा अग्रे गीताञ्जलि भगिनी, भगवान्
भगवान् इति पुंलिङ्ग् पदं प्रथमविभक्ति एकवचनं महोदय, तकारान्त,
भगवत् शब्द, भगवत् शब्दस्य समीचीनं भगिनी, हा भगवत् शब्दस्य प्रथमाविभक्ति एकवचनरूपं भगवान् इति समीचीनं। हा शोभा भगिनी अग्रे रथे इति,
रथे सप्तमी एकवचनं, रथः इति प्रथमविभक्तौ।
हा समीचीनं भगिनी अस्तु। हा अग्रे उमा भगिनी पितृन् इति,
पितृन् पुनः बहुवचनमेव,
हा किन्तु कीदृशपदम्?
ऋकारान्त,
हा ऋकारान्त, ऋकारान्त पितृशब्दः, पितृशब्दः पितृन्, समीचीनं भगिनि अस्तु। शुभा भगिनि बेरीः इति,
बेरी इति स्त्रीलिङ्ग एकवचनं, बेरीः द्वितीया विभक्तौ बहुवचनरूपम्।
हा समीचीनं भगिनि, तत्र प्रथमविभक्तिरूपं न भवितुम् अर्हति खलु, तत्र ईकारन्त स्त्रीलिङ्ग अस्ति, ईकारन्त अस्ति चेत्, हा बेर्यः इति भवति, किन्तु स्त्रीलिङ्गे आकारन्त अस्ति चेत् किं भवति?
प्रथमविभक्तौ अपि द्वितीयविभक्तौ बहुवचनरूपं
समानं भवति। समीचीनं भगिनि अस्तु, भवती एव अग्रिमम् अपि आरम्भं करोति वा?
आं महोदय, एतान् शब्दान् पठित्वा एतेषु भूतकालार्थकानां शब्दानां पुरतः एतत् चिह्नं कुरुत, एतं चिह्नं कुरुत उक्तवान् भूतकालरूपं, अनन्तरं स्थापय, इच्छामि, पश्य, एते न
नास्ति,
वादितवन्तः, वादित न सन्ति,
वादितवन्तः, यत् अस्ति तद् वदतु भगिनि, तावदेव, वादितवन्तः अस्ति, अस्तु अस्तु अस्तु, प्रथमस्तम्भः कृतं, द्वितीयस्तम्भः अन्य कोऽपि करोति, धन्यवादः भगिनि अस्तु। तत्र उमा भगिनी द्वितीयस्तम्भं करोति वा? आसन्, हा
आसन् भूतकाल आसीत् अपि, कृतवान् अभवत्,
अभवत् समीचीनं भगिनि, हा अस्तु। वंशीसुधा भगिनी अत्र पश्यामि किन्तु न श्रूयते भगिनि, हा गीताञ्जलि भगिनि तृतीयस्तम्भः इदानीं,
कृतवन्तः भूतकालरूपं, चिन्तया नास्ति, दर्शितवान् अपि भूतकालरूपम्, अनुशोचति नास्ति, मारितवान् भूतकालरूपम्।
समीचीनं भगिनि अस्तु। हा शोभा भगिनि,
आं महोदय, तत्र कृत्वा अपि स्थापयित्वा उक्त्वा अपि भूतकालं, कुरु
न चतुर्थस्तम्भः, चिन्ता मास्तु भगिनि,
तत्र कुरु, एकनिमिषं महोदय,
केवलं भूतकालरूपम्,
आम् आम् अस्माकं चिन्तया कृतवन्तः दर्शितात् तान्
स्तम्भः कुरु, प्राप्तवान्
अपि उपविष्टवान्,
अपि तावदेव, तत् अस्तु अस्तु, तदनन्तरम् अस्मि अपि भव, तत्र किमपि नास्ति, समीचीनं भगिनि अस्तु। वंशीसुधा भगिनी न श्रूयते, भानचितनी महोदय, तत्र अन्तिमस्तम्भः तत्र, हा दृष्टं पश्यति वा तत्र?
आम् महोदय,
हा अस्तु अन्तिमस्तम्भः,
दृष्टं प्रायः महोदय, मया दृष्टं,
हा तत्र दृष्टम् इति तादृश अर्थे अस्ति, हा दृष्टम् इति भूतकालरूपम् इति वक्तुं शक्नुमः, किन्तु कर्मर्थे
आं महोदय किन्तु कुत्रापि न दृश्यते महोदय उक्त्वा कृत्वा स्थापयित्वा स्वान्तरूपाणि एव सर्वे
अतः तत्र किमपि अस्तु
लोट्
अतः किमपि नास्ति अस्तु अस्तु महोदय तावदेव अस्तु अग्रे किम् अस्ति तत्र पाठं पठित्वा
महोदय द्रष्टुम् इति परिचयकः संज्ञकः
द्रष्टम् इति तत्र पठितं पाठम् अहं पाठं पठामि मया पठितं पाठम् एतत् पाठम्
अस्तु महोदय किन्तु पदं कीदृशपदं भूतकालस् नास्ति किन्तु कथं
तत्र अन्यरूपम् अस्ति तद्धितरूपं न किमस्ति
मया दृष्टं चित्रं सम्यक् अस्ति
इति तादृशं भूतकालार्थे भवति किन्तु रूपस्य नाम किम् इति पृच्छति वा
आं महोदय
तत्र अग्रे आयसि भगिनि
अस्तु अस्तु धन्यवादः
महोदय एकः सन्देहः तत्र भूतकालार्थकानाम् इति दत्तमस्ति भूतकाल अर्थे उक्त्वा कृत्वा भूतकालस्य अर्थं ददाति वा महोदय
किमर्थं
अहं कार्यं कृत्वा गमिष्यामि
न सूचयति केवलं एकं कार्यम् अस्ति तस्य अनन्तरम् अन्यत् कार्यम् अस्ति इति सूचयति तावदेव
किन्तु भूतकाले अपि
भवितुम् अर्हति अहम् एतत् कृत्वा अन्यत् कार्यं कृतवान् इति तदपि भवति भगिनि समीचीनं सत्यमेव किन्तु अतः तत्र किञ्चित् क्लेशः अस्ति तत्र भूतार्थे वक्तुं शक्नुमः इति प्रश्नः वा अथवा सर्वदा भूतकालार्थे एव भवति इति खलु इदानीं तत्र कृतवन्तः तत्र कोऽपि प्रश्नः एव नास्ति खलु तद् भूतकालरूपमेव अस्ति किन्तु तत्र कृत्वा इति भूतकालं भवति वर्तमानकालः भवति सर्वदा नास्ति इति अतः तत्र प्रश्ने सम्यक्तया न अवगम्यते तत्र कीदृश उत्तरम् अपेक्षितम् इति अतः एतदपि कर्तुं शक्नुमः अस्तु त्वान्तरूपं सर्वं मास्तु केवलं यत् तत्र कृतवन्तः अथवा तत्र नामपदं कृतवन्तः कृतवती अथवा अभवत् इति तादृशः पदानाम् एव अपेक्षा इति अपि कर्तुं शक्नुमः अत्र तादृशचिन्तनमपि भवति
आहत्य कानि पदानि महोदय स्थापयित्वा अपि तवतु
त्वान्तरूपम् अस्ति चेत् त्वान्तमपि ल्यबन्तमपि
कृत्वा तत् करिष्यति
सत्यं सत्यं
करिष्यति
तत्र तत् भूतकाले नास्ति सत्यमेव किन्तु त्वान्तरूपम् अपि स्वीकुर्मश्चेत् तत्र केचन अपि आगच्छन्ति तत्र
प्रवर्तमानस्य अध्याये अभ्यासे किमपि नास्ति वा अन्तिमस्तम्भे
केवलं दृष्टम् इति तद् भूतकालरूपे भवति इति मन्ये भगिनि
अस्तु महोदय
मया दृष्टं पुस्तकम् अथवा मया दृष्टं वृक्षम् एतद् इति एषः क्षम्यतां वृक्षः न मया दृष्टं पुस्तकम् एतत् पुस्तकम् अथवा मया दृष्टः वृक्षः एषः इति तादृशरूपं भवति तत्र भूतकालार्थे इति वक्तुं शक्नुमः किन्तु यदि तत्र यदि भूतकालरूपं किम् इत्युक्ते गीतासोपानपुस्तके यद् लिखितमस्ति भूतकालरूपम् इति अध्याये, तत्र वयं केवलं रूपद्वयं दृष्टवन्तः, नामपदरूपं गतवान् गतवती इति रूपम्, अपि अगच्छत् इति रूपम्. अतः
अवगतं महोदय, धन्यवादः.
अस्तु भगिनि, अस्तु. तर्हि अन्तिम अभ्यासे किमपि नास्ति इति मन्ये, पाठं पठित्वा एतान् विभक्त्यन्तान् शब्दान् चित्वा लिखत इति. द्वितीयान्तः अस्तु, षष्ट्यान्ताः, सप्तम्यान्तः अस्तु, तत् सर्वे कर्तुं शक्नुवन्ति इति मन्ये. अस्तु, अग्रे अग्रे गच्छामः वा? तत्र नूतनविषयः अस्ति इति. अस्तु अस्तु, तर्हि तत्र वनचेतनी महोदय अग्रिम अभ्यासः अग्रिम अध्यायः आरम्भं करोति वा?
आं महोदय. लृट् करिष्ये वचनं तव, एतान् गीताश्लोकान् उच्चैः पठत. पठामि वा महोदय?
महोदय एकनिमिषं. अत्र एतस्मिन् एक्सर्सैस् मध्ये दृष्टं लिखितम् अस्ति. तत्र इफ् यु सी बिहैण्ड् इन् दि आन्सर्स् दे हाव् गिवेन् द्रष्टुम्.
ओ, द्रष्टुं तुमुन् रूपं.
दृष्टम् इस् योर् वाट् एवर् यु सेड् बट् इन् द आन्सर्स् दे हाव् मेड् इट् द्रष्टुं.
तत्र प्रायशः मुद्रणदोषः अस्ति भगिनि, तावदेव.
यतः कन्फ्यूजन् बिकास्
यतः तत्र अपि तत्र द्रष्टुम् इति अस्ति चेत् तत् तुमुन् रूपम् अस्ति. तुमुन् रूपम् अस्ति चेत् तत्र
रूपम् अस्ति न, द्रष्टुं तुमन्तरूपं.
तुमुन् रूपं तत्तु प्रायशः तत् भूतकालार्थे न भवति खलु. तत्र मुद्रणदोषः.
दृष्टं वि हेव् नाट् कम् अक्रास्.
किन्तु तद् सत्यं सत्यं, तद् भूत्कालार्थे इति वक्तुं शक्नुमः, किन्तु मास्तु, केवलं गतवान् गतवती अगच्छत् इति रूपं स्वीकुर्मः अत्र. समीचीनं वा?
समीचीनम्.
अस्तु भगिनि, अस्तु महोदय. बालचित्र
महोदय पठामि वा महोदय?
पठतु महोदय.
स्वागतं स्वागतं ते.
स्वागतं भविष्यति भगिनि. बहु प्रयासानन्तरम् आगतवती.
अवश्यम् आगच्छति वंशी भगिनी.
सङ्गणके किञ्चित् दोषः अस्ति, अहं दूरवाण्यान्तः आगच्छामि.
अस्तु भगिनि,
किञ्चित् उच्चैः वदतु महोदय.
भगिनि
श्रोतु, सम्यक् श्रोतुं तु न शक्यते.
ओ अस्तु, अधुना श्रूयते वा महोदय?
अधुना श्रूयते, किञ्चित् उच्चैः भवति चेत् बहु समीचीनं भवति.
आं मम दूरवाण्यन्तः आगच्छामि महोदय.
अस्तु भगिनि, अस्तु. बालचेतनी महोदय इदानीं
एतान् गीताश्लोकान् उच्चैः पठत, अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि, ततः स्वधर्मं कीर्तिञ्च हित्वा पापमवाप्स्यसि.
बहु समीचीनं महोदय.
सर्वं पठति वा महोदय?
पठतु
महोदय, सर्वम् एकवारं पठतु. पठतु महोदय.
अकीर्तिञ्चापि भूतानि कथयिष्यन्ति तेभ्ययां, सम्भावितस्य चाकीर्तिः मरणादतिरिच्यते, भयाद्रनादु परतं मन्स्यन्ते त्वा महारथाः, येषाञ्च त्वं बहुमतः भूत्वा यास्यसि लाघवम्. अवाच्यवादांश्च बहून् बहून् वदिष्यन्ति तवाहिताः, निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्। हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीं। तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः। दुःखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि। एषा तेभिः तासाङ्ख्ये बुद्धिर्योगे त्विमां शृणु। बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।
धन्यवादः महोदय, धन्यवादः
बहु समीचीनम्।
अस्तु, हा धन्यवादः। हा तत्र अस्तु, तत्र विषयः कः? लृट् लकारः इति विषयः। रक्तवर्णे यानि क्रियापदानि पश्यामः तानि सर्वाणि लृट् लकारान्तानि। तत्र लृट् लकार इत्युक्ते भविष्यत्कालं सूचयति। तत्र प्रथमतया तत्र हा वाक्यानि सन्ति, तम् एकवारं तानि पठित्वा रूपं पश्यामः। अस्तु, तत्र शोभा भगिनी पठति, वंशीसुधा भगिनी पठति वा अग्रे वाक्यानि? श्रूयते भगिनि।
एतानि वाक्यानि उच्चैः कथत अवगच्छत च। अद्य सोमवासरः अस्ति, श्वः मङ्गलवासरः भविष्यति। भविष्यति इति
लट्लकाररूपमस्ति।
लट्लकाररूपमस्ति। अग्रे अपि पठामि,
अग्रे अग्रे अपि पठतु भगिनि, वाक्यत्रयं पठतु तत्र।
श्वः अहं संस्कृतं पठितुं संस्कृतशिबिरं गमिष्यामि। तत्र गमिष्यामि इति लकाररूपमस्ति, इत्युक्ते श्वः इति अस्ति, श्वः इत्युक्ते भविष्यत् कालरूपमस्ति, अतः गमिष्यामि इति लकाररूपमस्ति। तृतीयवाक्यमस्ति, अग्रिमे मासे अहं संस्कृतस्य परीक्षां लेखिष्यामि। अस्ति इति कृत्वा लेखिष्यामि, लिखति इति परस्मैपदि लट्लकाररूपमस्ति, लेखिष्यामि इति लट्लकाररूपमस्ति महोदय।
समीचीनं भगिनि, धन्यवादः। शोभा भगिनि अग्रिम।
अग्रिमे वर्षे अहं संस्कृतभारत्याः विस्तारकः भविष्यामि।
तत्र भविष्यामि,
अस्तु, विस्तारक, ओके, तत्र भविष्यामि इति दृट् लकारे अस्ति। भवति इति लट् लकार पदस्य। अद्य अहं मौखिकम् अभ्यासं करोमि। मौखिकं महोदय,
मुखेन इति,
ओ अस्तु,
स्पोकन् संस्कृत,
नूतनपदमस्ति मम कृते।
सत्यं भगिनि,
श्वः लेखनस्य अभ्यासं करिष्यामि। तत्र करिष्यामि लृट् लकारे अस्ति, करोमि इति लट् लकारे पदस्य। अपि त्वम् अद्य सायङ्काले किं करिष्यसि? तत्र करिष्यसि करोषि इत्यस्य लृट्लकारे करिष्यसि मध्यमपुरुषे एकवचने। ते अत्र कदा आगमिष्यन्ति, पठिष्यन्ति च? तत्र आगमिष्यन्ति, पठिष्यन्ति लृट्लकारे। तत्र आगमिष्यति,
न न आगमिष्यन्ति
आगमिष्यन्ति
तत्र लट् लकारे किम् अस्ति आगच्छन्ति
आगच्छन्ति आगच्छन्ति पठन्ति
पठन्ति इति समीचीनं भगिनि हा पठन्ति इति समीचीनं हा तत्र लृट् लकारः इत्युक्ते भविष्यत्कालरूपं तत्र तत्र भविष्यत्कालं भविष्यत्कालः इत्युक्ते श्वः अथवा अग्रिममासे अग्रिमवर्षे तत् सर्वं भवति किन्तु अद्य अपि तत्र षष्ठवाक्यं पश्यतु त्वम् अद्य सायङ्काले किं करिष्यसि इति तत्र अद्यापि तत्र प्रयोगं भवति अद्य एतत् करोमि इति अपि समीचीनमस्ति सायङ्काले अहं मन्दिरं गच्छामि इति समीचीनमस्ति अथवा सायङ्काले अद्य सायङ्काले अहं मन्दिरं गमिष्यामि तदपि समीचीनमस्ति अतः तत्र भूतकाल भविष्यत्कालरूपम् अस्ति किन्तु तत्र अद्य इति तत्रापि वयं तस्य प्रयोगः भवितुम् अर्हति अस्तु तत्र प्रथमतया एकवारं साधारणरूपं सामान्यरूपं पश्यामः तदनन्तरम् आत्मने तत्र परस्मैपदी धातूनां साधारणरूपं पश्यामः तदनन्तरम् आत्मनेपदी धातूनां सामान्यरूपमपि पश्यामः अस्तु तर्हि तत्र चलति इति अस्ति तत्र चलति इति क्रियापदस्य शुभा भगिनी एकवारं पठति वा तत्र चलति इति क्रियापदस्य रूपम् अग्रिमपुटे
आं महोदय चलिष्यति चलिष्यतः चलिष्यन्ति चलिष्यसि चलिष्यतः चलिष्यथ चलिष्यामि चलिष्यावः चलिष्यामः
इति समीचीनं भगिनि अस्तु हा इदानीं तत्र भानुचेतरी महोदय अग्रे अस्तु एकवारं महोदय एकनिमिषं महोदय गीताञ्जलि भगिनी अग्रे पठति वा गमिष्यति इति एकवारं रूपम्
आं महोदय गमिष्यति गमिष्यतः गमिष्यन्ति गमिष्यसि गमिष्यथः गमिष्यथ गमिष्यामि गमिष्यावः गमिष्यामः
इति समीचीनम् अस्तु उमा भगिनी तत्र दृश् धातोः
ओके द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति द्रक्ष्यसि द्रक्ष्यथः द्रक्ष्यथ द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः
हा अस्ति अस्तु अन्यत् एकमेव कुर्मः तत्र भानुचतनि महोदय तत्र करोति इति रूपं
महोदय
हा
करिष्यति करिष्यतः करिष्यन्ति करिष्यसि करिष्यथ करिष्यतः करिष्यथ करिष्यामि करिष्यावः करिष्यामः
हा इति समीचीनम् अस्तु हा इदानीं तत्र शोभा भगिनी इदानीं तत्र बालकः चलिष्यति इति अथवा सः इति स्वीकरोतु भगिनि सः तौ ते त्वं युवां यूयम् अहम् आवां वयम् इति उपयुज्य चलिष्यति इति
अस्तु महोदय सः चलिष्यति तौ चलिष्यतः ते चलिष्यन्ति त्वं चलिष्यसि युवां चलिष्यथः यूयं चलिष्यथ अहं चलिष्यामि आवां चलिष्यावः वयं चलिष्यामः
हा समीचीनं भगिनि हा अस्तु इदानीं गीताञ्जलि भगिनि तत्र सा गमिष्यति
सा गमिष्यति ते गमिष्यतः ताः गमिष्यन्ति त्वं गमिष्यसि युवां गमिष्यथः यूयं गमिष्यथ अहं गमिष्यामि आवां गमिष्यावः वयं गमिष्यामः
हा समीचीनं हा शुभा भगिनी अग्रे इदानीं तत्र सा द्रक्ष्यति इति
सा द्रक्ष्यति ते द्रक्ष्यतः ताः द्रक्ष्यन्ति त्वं द्रक्ष्यसि युवां द्रक्ष्यतः यूयं द्रक्ष्यथ अहं द्रक्ष्यामि आवां द्रक्ष्यावः वयं द्रक्ष्यामः
हा समीचीनं भगिनि हा अस्तु वंशीसुधा भगिनी इदानीं करिष्यति इदानीं बालकः करिष्यति
बालकः करिष्यति बालकौ करिष्यतः बालकाः करिष्यन्ति त्वं करिष्यसि युवां करिष्यतः यूयं करिष्यथ अहं करिष्यामि आवां करिष्यावः वयं करिष्यामः
इति समीचीनं भगिनि अस्तु हा इदानीं उमा भगिनि तत्र चलिष्यति इति अस्ति तत्र
भवान् इति पदं
हा अस्तु अस्तु भगिनि अस्तु हा उमा भगिनि भवान् चलिष्यति इति हा
भवान् चलिष्यति भवन्तौ चलिष्यतः भवन्तः चलिष्यन्ति त्वं चलिष्यसि युवां चलिष्यथः यूयं चलिष्यथ अहं चलिष्यामि आवां चलिष्यावः वयं चलिष्यामः
हा इति समीचीनम् अस्तु तत्र अग्रे भानुचेतनी महोदय गमिष्यति तत्र
भवति
अस्तु हा अहं चिन्तितवान् अस्तु भवति हा अस्तु महोदय भवति गमिष्यति हा
किं करणीयं महोदय
भवति भवति इति उपयुज्य गमिष्यति इति क्रियापदं किन्तु भवति गमिष्यति इदानीं द्विवचने बहुवचने
गमिष्यति भवत्यौ गमिष्यतः भवत्यः गमिष्यन्ति त्वं गमिष्यसि युवां गमिष्यथः यूयं गमिष्यथ अहं गमिष्यामि आवां गमिष्यावः वयं गमिष्यामः
हा इति समीचीनं महोदय अस्तु इदानीं शोभा भगिनि तत्र द्रक्ष्यति इदानीं तत्र एतत् कुर्मः तत्र हा तत्र हा सरस्वती द्रक्ष्यति
आं महोदय सरस्वती द्रक्ष्यति सरस्वत्यौ द्रक्ष्यतः सरस्वत्यः द्रक्ष्यन्ति त्वं द्रक्ष्यसि युवां द्रक्ष्यथः यूयं द्रक्ष्यथ अहं द्रक्ष्यामि आवां द्रक्ष्यावः वयं द्रक्ष्यामः
हा इति समीचीनं भगिनि अस्तु गीताञ्जलि भगिनि तत्र देवी इति करिष्यति
देवी करिष्यति देव्यौ करिष्यतः देव्यः करिष्यन्ति त्वं करिष्यसि युवां करिष्यथः यूयं करिष्यथ अहं करिष्यामि आवां करिष्यावः वयं करिष्यामः
अस्तु समीचीनम् अस्तु इदानीं तत्र गमिष्यति इति तत्र स्वीकुर्मः शुभा भगिनि तत्र एतत् कुर्मः इदानीं तत्र हा लता ग्रामं गमिष्यति
लता ग्रामं गमिष्यति लते ग्रामं गमिष्यतः लताः ग्रामं गमिष्यन्ति त्वं ग्रामं गमिष्यसि युवां ग्रामं गमिष्यतः यूयं ग्रामं गमिष्यथ अहं ग्रामं गमिष्यामि आवां ग्रामं गमिष्यावः वयं ग्रामं गमिष्यामः
समीचीनं भगिनि धन्यवादः अस्तु भानुचेतनी महोदय इदानीं द्रक्ष्यति इति तत्र हा लता लता किं द्रक्ष्यति तत्र पाठशाला
लता पाठशालां द्रक्ष्यति लते पाठशालां द्रक्ष्यतः पाठशाले महोदय लते पाठशाले द्रक्ष्यतः
तत्र कर्मपदस्य अपि वचनं तस्य तद् वचनपरिवर्तनं न आवश्यकं महोदय क्लेशः भवति एकवचने एव करोतु
लताः पाठशालाः द्रक्ष्यन्ति
अस्तु महोदय अस्तु हा त्वं
त्वं पाठशालां द्रक्ष्यसि युवां पाठशाले द्रक्ष्यतः यूयं पाठशालाः द्रक्ष्यत अहं पाठशालां द्रक्ष्यामि युवां पाठशाले पाठशाले द्रक्ष्यावः वयं पाठशालाः द्रक्ष्यामः
अस्तु समीचीनं महोदय अस्तु वंशीसुधा भगिनि तत्र करिष्यति इदानीं तत्र बालिका कार्यं करिष्यति
बालिका कार्यं करिष्यति बालिके कार्यं करिष्यतः बालिकाः कार्यं करिष्यन्ति त्वं करिष्यसि
त्वं कार्यं कार्यं त्वं कार्यं
त्वं कार्यं करिष्यसि त्वं कार्यं करिष्यतः त्वं कार्यं करिष्यतः
न न न त्वं कार्यं करिष्यसि तदनन्तरं युवां
युवां कार्यं करिष्यतः यूयं कार्यं करिष्यत अहं कार्यं करिष्यामि आवां कार्यं करिष्यावः वयं कार्यं करिष्यामः
हा इति समीचीनं भगिनि अस्तु हा इदानीं तत्र शोभा भगिनी तत्र किं किमपि नूतनं स्वीकुर्मः खलु तत्र पठिष्यति इति अस्तु हा तत्र किं हा तत्र भवती एव किमपि स्वीकरोतु भगिनि तत्र किन्तु कर्मपदमपि भवेत् अपि कर्तृपदम्
आम् महोदय तत्र अहं करिष्यति इति वा
करिष्यति पठिष्यति पठिष्यति इति तत्र पठिष्यति पठिष्यतः पठिष्यन्ति इति रूपम् अस्ति हा
हा तत्र महिला पाठं पठिष्यति महिले पाठं पठिष्यतः महिलाः पाठं पठिष्यन्ति त्वं पाठं पठिष्यसि युवां पाठं पठिष्यतः यूयं पाठं पठिष्यथ अहं पाठं पठिष्यामि आवां पाठं पठिष्यावः वयं पाठं पठिष्यामः
हा इति समीचीनं भगिनि अस्तु सर्वे एतद् कृतवन्तः वा तत्र कर्मपदसहित अभ्यासः
आं महोदय
उमा भगिनी कृतवती वा कर्मपदसहित कर्मपदसहित अभ्यासं
न जानामि
अस्तु अतः एकवारं भवती करोतु तत्र बालकः वृक्षं द्रक्ष्यति इति
बालकः वृक्षं द्रक्ष्यसि द्रक्ष्यति बालकौ वृक्षं द्रक्ष्यतः बालकाः वृक्षं द्रक्ष्यन्ति त्वं वृक्षं द्रक्ष्यसि युवां वृक्षं द्रक्ष्यथः यूयं वृक्षं द्रक्ष्यथ अहं वृक्षं द्रक्ष्यामि आवां वृक्षं द्रक्ष्यावः वयं वृक्षं द्रक्ष्यामः
हा समीचीनं भगिनि धन्यवादः तत्र स्वरूपमहोदयस्य वर्गे एकवारं सः एतत् कृतवान् कर्मकारः कार्यं करिष्यति इति तादृशरूपं तत्र क्लेशः आसीत् हा कर्मकारः कार्यं करिष्यति इति सर्वं ककारः अस्ति इति हा तत्र मनसि बहु क्लेशः भवति अस्तु अग्रे गच्छामः तत्र परस्मैपदीरूपधातूनां सामान्य तत्र लृट् लकाररूपं तत्र विशेष क्रियापदानि पदानां रूपाणि अग्रिमे पुटे दत्तम् अस्ति. तत् एकवारं पश्यामः तत्र किम् अस्ति इति. एकवारं पश्यामः तत्र दा धातुः धास्यति अथवा धास्यते इति भवति, पृच्छति इति प्रक्ष्यति इति भवति. हा तत्र तत् तत् उपयुज्य अत्र अधोभागे यत् यः अभ्यासः अस्ति तम् अभ्यासं कर्तुं प्रयत्नं कुर्मः तत्र. अस्तु, तत्र रूपस्य अवगमनम् अभवत् वा? तत्र कीदृश लृट् लकारस्य सामान्यरूपं कीदृशं भवति इति मनसि स्थापितं भवति वा? तत्र चलिष्यति, चलिष्यतः, चलिष्यन्ति, चलिष्यसि, चलिष्यतः, चलिष्यत, चलिष्यामि, चलिष्यावः, चलिष्यामः. तत्र लट् लकाररूपं किम् अस्ति? चलति,
चलति, चलतः, चलन्ति, चलसि, चलतः, चलन् चलथ, चलामि, चलावः, चलामः.
अस्तु, अतः तत्र लट् लकाररूपः अपि लृट् लकाररूपः तयोः मध्ये कः भेदः?
श्या इति आगच्छति तदेव.
तत्र चलति इति स्थाने चलिष्यति इति भवति, इकारः आगच्छति. अपि मध्ये श्यकारः अस्ति खलु. इदानीं तत्र एकः अंशः तत्र तत्र वक्तव्यः अस्ति. सः अंशः कः इत्युक्ते, तत्र यदि वयं जानीमः चलति इति धातोः लृट् लकाररूपं, चलिष्यति इति अस्ति चेत् केवलं तावदेव जानीमः इति चिन्तयतु. एतत् कोष्टकं दृष्ट्वा किम् अन्यानि रूपाणि कर्तुं शक्नुमः वा वयं? चलति इति रूपस्य, चलति इति क्रियापदस्य चलिष्यति इति लृट् लकारः अस्ति चेत् तद् उपयुज्य अन्यानि रूपाणि कर्तुं शक्नुमः वा?
न महोदय, गमिष्यति.
न, केवलं चल्, केवलं चल् इति एकवचने, केवलम् एकवचने प्रथमपुरुषे एकवचनरूपं जानीमः. चलति इति चलिष्यति इति भवति. इदानीं चलतः किं भवति? चलिष्यतः इति भवति. चलन्ति किं भवति?
चलिष्यन्ति.
हा, चलिष्यन्ति इति भवति. अतः तत्र एकं रूपम्, एकपुरुष अपि एकवचनस्य रूपस्य एव ज्ञानम् अस्ति चेदपि तत्र अन्यानि रूपाणि वयं कर्तुं शक्नुमः. एतत् सामान्यरूपं खलु. तत्र चलति, चलतः, चलन्ति, चलिष्यति, चलिष्यतः, चलिष्यन्ति, चलसि, चलतः, चलत, तत्र चलिष्यसि, चलिष्यतः, चलिष्यत इति. हा, अतः तत्र पट् इति धातुः अस्ति. तत्र पठति इति स्थाने पठिष्यति इति भवति चेत् रूपं किं भवति?
पठिष्यति, पठिष्यतः, पठिष्यन्ति.
अपि द्विवा मध्यमपुरुषे
पठिष्यसि, पठिष्यतः, पठिष्यत, पठिष्यामि, पठिष्यावः, पठिष्यामः.
हा, इति भवति. अतः एकस्य रूपस्य अवगमनेन, ज्ञानेन वयम् अन्यानि रूपाणि कर्तुं शक्नुमः तत्र. अस्तु, अतः तत्र पठिष्यति इति कृतवन्तः. इदानीं चलिष्यति इति, अचल् इति धातुः, तद् कृतवन्तः एव पूर्वम्. अस्तु, गम् इति अपि कृतवन्तः, गम् अपि कृतवन्तः. हा, क्रीड् इति अस्ति. हा, तत्र क्रीडिष्यामि, तद् उभयपदी अस्ति. नो, उत्तमपुरुष, उत्तमपुरुषरूपं क्रीडिष्यामि इति. हा, तत्र तत्र एकवारं सर्वं वदामः. तत्र
क्रीडिष्यामि महोदय, क्रेष्यति,
न न क्रीडिष्यामि क्रीडति क्रीडति इति क्रीडिष्यामि क्रीडिष्यामि क्रीडामि क्रीडिष्यामि इति भवति. तत्र वंशीसुधा भगिनी क्रीडति इति तत्र क्रीडिष्यामि इति रूपं दत्तमस्ति, अतः नवरूपाणि वदतु. तत्र क्रीडिष्यति भगिनी अस्ति वा? अस्तु, न श्रूयते भगिनि. अस्तु, गीताञ्जलि भगिनि वदति वा क्रीडिष्यति इति?
आं महोदय, क्रीडिष्यति, क्रीडिष्यतः, क्रीडिष्यन्ति, मध्यमपुरुष, क्रीडिष्यसि, क्रीडिष्यतः, क्रीडिष्यथ, उत्तमपुरुष, क्रीडिष्यामि, क्रीडिष्यावः, क्रीडिष्यामः
इति. समीचीनं भगिनि. अस्तु, शुभा भगिनी, तत्र खादिति धातोः खादिष्यतः इति अस्ति.
आं महोदय, खादिष्यति, खादिष्यतः, खादिष्यन्ति, खादिष्यसि, खादिष्यतः, खादिष्यथ, खादिष्यामि, खादिष्यावः, खादिष्यामः
इति भवति. समीचीनं भगिनि. उमा भगिनी अग्रे, धाविति धाविष्यत इति दत्तमस्ति.
धावति धावतः धावन्ति.
इदानीं किन्तु लृट् लकाररूपम् इदानीं.
ओ, धाविष्यति धाविष्यतः धाविष्यन्ति, धाविष्यसि धाविष्यथः धाविष्यथ, धाविष्यामि धाविष्यावः धाविष्यामः.
हा, समीचीनं भगिनि. अस्तु, अग्रे शोभा भगिनि, तत्र
नमस्यति, नमस्यामि, तत्र नमति इति अस्ति, नमिष्यामि, नमिष्यामि,
नंस्यामि, तत्र नंस्यामि, नंस्यामि, नंस्यामि.
अहं वक्तुं
तत्र विशेषरूपम् अस्ति भगिनि, तत्र नमिष्यामि
वक्तुं प्रयत्नं कृतवती.
तत्र उपरि एव दत्तमस्ति भगिनि, नंस्यति इति. तत्र उत्तमपुरुषे किं भवति? तत्र पठति प्रथमपुरुषे, किन्तु उत्तमपुरुषे पठामि इति दीर्घ अकारः मध्ये आगच्छति खलु. अत्र नंस्यामि इति अस्ति, किन्तु प्रथमपुरुषे नंस्यति.
नंस्यति, नंस्यतः, नंस्यन्ति, नंस्यसि, नंस्यतः, नंस्यथ, नंस्यामि, नंस्यावः, नंस्यावः, नंस्यामः.
हा, नंस्यामः. समीचीनं भगिनि. हा, समीचीनम्. अस्तु, अग्रे वंशीसुधा भगिनी. हा, अस्तु, इदानीं श्रूयते भगिनि. अस्तु, तत्र ध्रुधातुः धरिष्यतः इति अस्ति.
ध्रुधातु लट्लकाररूपमस्ति धरति, लुट्लकाररूपमस्ति धरिष्यति, धरिष्यतः,
धरिष्यन्ति, धरिष्यन्ति,
धरिष्यन्ति, धरिष्यसि, धरिष्यतः, धरिष्यथ, धरिष्यामि, धरिष्यावः, धरिष्यामः.
हा, इति समीचीनं भगिनि. हा, बानिस्तनी महोदय, तत्र हृष् हृ इति धातोः हरिष्यत इति रूपं दत्तमस्ति, मध्यमपुरुषे बहुवचने, अतः
महोदय होष्यामि वा हु
हृ हृ धातुः
हृ हरिष्यत
हरति इति
वदामि. हरिष्यति, हरिष्यतः, हरिष्यन्ति, हरिष्यसि, हरिष्यतः, हरिष्यथ, हरिष्यामि, हरिष्यावः, हरिष्यामः.
हा, इति समीचीनं महोदय. अस्तु, अग्रे गीताञ्जलि भगिनी, तत्र किं, हा, इदानीम् इदानीं तत्र आत्मनेपदि धातूनां
भवति.
अस्तु, इदानीं तत् तत्र रूपम् एकवारं पश्यामः. अस्तु, अतः पुनः एकवारं
पूर्वस्मिन् पुटे महोदय.
हा, तत् किन्तु तस्य अभ्यासं न कृतवन्तः भगिनि, अतः पूर्वस्मिन् पुटे पुटं गच्छामः पूर्वपुटं गच्छामः तत्र भगिनी तत्र पठतु तत्र करिष्यते इति रूपम्
आम् महोदय आत्मनेपदी रूपाणि
कृधातु
कृधातु करिष्यते करिष्येते करिष्यन्ते करिष्यसे करिष्येथे करिष्यध्वे करिष्ये करिष्यावहे करिष्यामहे
इति रूपम् अस्ति. अस्तु इदानीं तत्र आत्मनेपदी धातूनां लट्लकाररूपं कीदृशं भवति तत्र कुत्र अस्ति
वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दध्वे वन्दे वन्दावहे वन्दामहे
हा इदानीं तत्र किं भवति तत्र मध्ये
कुरुते
हा कुरुते मास्तु कुरुते मास्तु अत्र अस्तु एतत् मास्तु एतत् कुर्मः तत्र
अत्र अपि महोदय इश् आगच्छति
हा अपि एकम् एकम् एकस्य रूपस्य ज्ञानेन अन्यान् रूपान् अन्यानि रूपाणि अपि वयं कर्तुं शक्नुमः. अस्तु तत्र एतद् दृष्ट्वा तत्र सहते अस्ति चेत् किं भवति सहते सहिष्यते सहिष्येते सहिष्यन्ते
सहिष्यसे
सहिष्यद्वे
सहिष्ये सहिष्यावहे सहिष्यामहे
इति भवति. अस्तु समीचीनम् इदानीं तदेव रूपम् एकवारं तत्र वयं तस्य अभ्यासं कुर्मः तत्र शुभा भगिनी इदानीं तत्र वर्धते इति तत्र वर्धते इति आत्मनेपदी क्रियापदं तत्र वर्धिष्यते इति रूपम् एकवारं
वर्धिष्यते वर्धिष्येते वर्धिष्यन्ते वर्धिष्यसे वर्धिष्येते वर्धिष्यध्वे वर्धिष्ये वर्धिष्यावहे वर्धिष्यामहे
हा इति समीचीनं भगिनि हा समीचीनं हा इदानीं शोभा भगिनी तत्र जायते इति
जायते जायते किं भवति
जायिष्यते
जायिष्यते समीचीनं वा अस्तु
अथवा एतत् कुर्मः भगिनि तत्र भजते इति क्रिया स्वीकरोतु भजते
हा भजते भजिष्यते भजिष्यते भजिष्येते भजिष्यन्ते भजिष्यसे भजिष्येथे भजिष्यध्वे भजिष्ये भजिष्यावहे भजिष्यामहे
इति समीचीनं हा उमा भगिनी तत्र लभते इति
लभते लभिष्यते एकनिमिषं लभते किञ्चित् भिन्नमस्ति अहं चिन्तयामि
न
लभिष्यते
इति न
लप्स्यते
लप्स्यते अस्तु अस्तु धन्यवादः भगिनि क्षम्यताम् अस्तु तत्र
जायिष्यते ज्ञास्यते अस्ति वा महोदय
हा 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 तत्र इदानीं विशेषरूपं मास्तु किन्तु इदानीं विशेषरूपं मास्तु साधारणरूपं पश्यामः धन्यवादः भगिनि मम भगिनि तत्र किं कुर्मः तत्र विशेषरूपं मास्तु इत्युक्ते तत्र वर्धते इति कृत्वा भजते भजिष्यते
लभते का इन् पेज् 113 दत्तमस्ति अन्तिमं
अत्र
लप्स्ये लप्स्ये इति दत्तमस्ति अस्तु भगिनि तत् उपयुज्य वदतु भगिनि तत्र लप्स्ये इति
लप्स्ये दत्तमस्ति लप्स्ये बुलगते
उत्तमपुरुषे एकवचने उत्तमपुरुषे एकवचने अतः प्रथमपुरुष एकवचनरूपं किं भवति
लप्स्यते
लप्स्यते
लप्स्येते लप्स्यन्ते लप्स्यसे लप्स्येथे लप्स्यध्वे लप्स्ये लप्स्यावहे लप्स्यामहे
इति समीचीनम् अस्तु अतः तत्र यद् दत्तमस्ति तद् तमेव उपयुज्य कुर्मः तत्र इदानीं तत्र कुत्र अस्ति हां तत्र विपरीत रूप दिशि गच्छामः इदानीं तत्र लप् इति कृतवन्तः तस्य पूर्वं त्रु इति धातुः अस्ति तद् तत् कुर्मः त्रु इति धातु उत्तमपुरुषे तरिष्यावः इति दत्तमस्ति तत्र वंशीसुता भगिनी तत्र तरिष्यावः इति अस्ति तत्र किं तत् परस्मैपदी धातु वा आत्मनिपदि धातु वा
उभयपदि वा
किन्तु परस्मैपदीरूपं दत्तमस्ति परस्मैपदीरूपं दत्तमस्ति
तत्र रूपमस्ति करिष्यामि करिष्यावः करिष्यामः
समीचीनं भगिनि अस्तु अस्तु तावदेव यद् दत्तमस्ति तत् यत् यः पुरुषः दत्तः सः एव पर्याप्तम् अत्र अस्तु तत्र उत्तमपुरुषरूपमेव अस्तु अग्रे गीताञ्जलि भगिनी तत्र नृत् इति अस्ति मध्यमपुरुषे
नर्तिष्यथ इति दत्तं नर्तिष्यसि नर्तिष्यसि नर्तिष्यथः नर्तिष्यथ
मध्यमपुरुषरूपाणि रूपं समीचीनं भगिनि हा समीचीनं हा अस्तु अग्रे शोभा भगिनी
स्थाप् इति धातुः स्थापयिष्यति स्थापयिष्यतः स्थापयिष्यन्ति
इति समीचीनं भगिनि
महोदय स्थाप् इति धातुरूपमस्ति स्थाप् एव अहं जानामि अहं स्थाप् न श्रूयते महोदय
उपरि स्थाप्य
स्था इति दत्तमस्ति उपरि एव
ओ अस्तु
प्रायशः मुद्रणदोषः अस्ति भगिनि अत्र गीतासोपने अपि मुद्रणदोषाणि दोषाः सन्ति अतः सावधानं
तर्हि नास्ति वा महोदय
न न स्था इति धातु स्था एव धातु इति मन्ये
अस्तु
अस्तु तर्हि तत्र उमा भगिनी अग्रे स्था इति
उत्तमपुरुषः एकं तु अस्ति स्थाप्
स्थाप् नास्ति स्था उत्तमपुरुषः उत्तमपुरुषः
स्थास्यामि स्थास्यावः स्थास्यामः
इति समीचीनं भगिनि हा अस्तु भानुचितनी महोदय क्रु धातुः उत्तमपुरुषरूपम् आत्मनेपदि धातु
महोदय तत्र
मुद्रणदोषः
स्थापयिष्यामि
न न न ओ क्षम्यतां मम दोषः अस्ति इति मन्ये तत्र धन्यवादः महोदय तत्र स्थास्यामि
तिष्ठति
तत्र किञ्चित् भेदः अस्ति सत्यं भगिनि हा तत्र
उपदेशे स्टाप्
किन्तु डिरैव् धातु महोदय ओरिजिनल् नास्ति
अत्र ओरिजिनल् केवलं स्था इति एव अस्ति किन्तु किन्तु यथा भानुचित्री महोदय उक्तवान् तद् समीचीनमेव तत्र भेदः अस्ति मम दोषः आसीत् अहं चिन्तितवान् केवलं मुद्रणदोषः इति किन्तु धातोः भेदः अत्र अस्ति सत्यं सत्यं स्था अपि स्थाप् भिन्नः अस्ति तत्र. हा धन्यवादः
महोदय. स्थाप् इति नास्ति.
हा स्थाप् इति धातु नास्ति, किन्तु तत्र अन्यत् किन्तु क्रियापदं तु अन्यत् क्रियापदम् अस्ति. अतः रूपभेदः अस्ति तत्र. स्थापयिष्यति इति एकम् अपि स्थास्यति इति स्थास्यति.
महोदय कथं वदामः डिरैव्ड् धातु महोदय?
तत्र डिरैव्ड् इति तत्र किमपि नाम प्रायशः अस्ति, न जानामि भगिनि, दृष्ट्वा वदामि. हा हा किमपि नाम भवेत् किन्तु न जानामि. हा अस्तु
समीचीनप्रश्नरूपम् स्थापयति
तत्र किं
वदन्ति महोदय?
स्था नास्ति, किन्तु तत्र धातु किम् अस्ति? स्थापयति
अस्ति चेत् तत्र स्थापयति एव भवति, स्थापयिष्यति नास्ति.
तत्र स्थापयत् सत्यं भगिनि, किन्तु स्थापयिष्यति लट्लकरूपमस्ति स्थापयति. तत्र किं भगिनि, तत्तु किं प्रेरणार्थके अस्ति खलु? तत्र तिष्ठति इति स्थापयति इति भवति, तिष्ठति इति
चोरयति,
पठति पठति न पठति पाठयति, तिष्ठति स्थापयति इति मन्ये. अतः तिष्ठति इति धातु अस्ति इति चिन्तयामि भगिनि, किन्तु तत्र प्रेरणार्थे अस्ति.
लट्लकारे तिष्ठति स्था धातोः, लृट् लकारे स्थास्यति अस्ति महोदय, स्थापयिष्यति अत्र.
न न भगिनि, भगिनि तत्र तत्र प्रेरणार्थे इत्युक्ते तत्र
अवगच्छामि, किन्तु यथा भवती पृष्टवती स्थापयिष्यति इत्यस्य मूलरूपं मूलधातुः किमस्ति इति
अत्र प्रायशः स्था. अस्तु दृष्ट्वा पुनरेकवारम् अत्र आगच्छामः. किन्तु तत्र किमपि
अर्थं भिन्नम् अस्ति.
सत्यं सत्यं, तिष्ठति स्थापयति तत्र.
तिष्ठति समथिङ्ग् टु डु वित् वेटिङ्ग् आर् स्टाण्डिङ्ग् आर् समथिङ्ग्, परन्तु स्थापयति इत्युक्ते टु कीप्.
प्रेरणार्थे भवति इति मन्ये भगिनि, किन्तु एकवारं दृष्ट्वा वदामः. एकवारं दृष्ट्वा वदामः, अग्रिमवर्गे पश्यामः भगिनि. अस्तु इदानीं तत्र किं क्रूधातुः? हा क्रूधातुः वनचितनी महोदय, क्रूधातुः आत्मनेपदी रूपे उत्तमपुरुषे. हा
करिष्ये, करिष्यावहे, करिष्यामहे.
हा इति समीचीनम्. अस्तु शुभा भगिनी, तत्र क्रूधातुः उत्तमपुरुषः परस्मैपदी
करिष्यामि, करिष्यावः, करिष्यामः.
हा इति समीचीनम्. वंशीसुधा भगिनी अग्रे तस्य उपरि.
आं महोदय, भूधातु भवति इति लट्लकाररूपमस्ति, तत्र लट्लकाररूपं प्रथमपुरुषे परस्मैपदी धातुः अस्ति, भविष्यति, भविष्यतः, भविष्यन्ति
इति समीचीनम्. हा अस्तु अग्रे शोभा भगिनी, तत्र युद्ध इति
युद्ध इति योत्स्यते,
अतः आत्मनेपदी
आत्मनेपदी. हा योत्स्यते, योत्स्येते, योत्स्यन्ते,
योत्स्यन्ते समीचीनम्. योत्स्यन्ते समीचीनम्. हा गीताञ्जलि भगिनी अग्रे.
महोदय अत्र युद्धधातोः वर्तमानकाले युध्यते वा? युध्यते वर्तमान
युध्यते. हा 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 युध्यते इति चिन्तयामि भगिनि.
अस्तु महोदय, धन्यवादः.
हा, युध्यते एव इति मम चिन्तनं. हा,
वद् धातु महोदय, पदे वदिष्यामि, वदिष्यावः, वदिष्यामः.
हा, अस्तु. अग्रे उमा भगिनि, रुद् इति.
अन्यत् कर्तव्यं न. ओके, रुद् धातुः अत्र किं लिखितं? रोदिष्यसि, रोदिष्यथः, रोदिष्यथ.
हा, इति समीचीनं भगिनि. हा, अस्तु. शुभा भगिनि, क्षाल् इति.
क्षाल् प्रथमपुरुषरूपं. क्षालि, क्षालयिष्यति, क्षालयिष्यतः, क्षालयिष्यन्ति.
हा, समीचीनं भगिनि. हा, तत्र युध्यते एव समीचीनं. युध्यते, युध्यते, युध्यन्ते इति अस्ति भगिनि. अस्तु, भानुचतुरी महोदय, अग्रे तत्र रम् इति.
महोदय, रम् रम्स्येथे, रम्स्येसे, रम्स्येसे, रम्स्येथे, रम्स्येद्वे,
रम्स्यद्वे. हा, समीचीनं. हा, वंशीसुधा भगिनि, पा इति.
पा इति धातु पिबति इति लट्लकारवचनमस्ति. उत्तमपुरुषः परस्मैपदि धातु, अतः पास्यामि, पास्यावः, पास्यामः.
हा, इति समीचीनं. हा, शोभा भगिनि,
मिल् इति धातुः. मेलिष्यसि, मेलिष्यतः, मेलिष्यथ.
मेलिष्यत, समीचीनं भगिनि. हा, अस्तु. गीतांजलि भगिनि,
नी नेष्यति, नेष्यतः, नेष्यन्ति.
हा, नेष्यति, नेष्यतः, नेष्यतः, नेष्यन्ति. समीचीनं, समीचीनं. हा, उमा भगिनि, दृक्ष, दृश्य इति धातु. हा,
द्रक्ष्यति. ओ, अत्र तु द्रक्ष्यामः. ओके, द्रक्ष्यामि, द्रक्ष्यावः, द्रक्ष्यामः.
हा, उत्तमपुरुषं, समीचीनं भगिनि, उत्तमपुरुषः. हा, शुभा भगिनि,
हू धातुः उत्तमपुरुषरूपं. होष्यामि, होष्यावः, होष्यामः.
हा, इति समीचीनं. हा, भानुचतुरी महोदय,
होष्यामि इत्युक्ते महोदय,
हिंदी
में होश इज लाइक,
ना ना ना, होश नहीं है वो, होशियामी
No, this is Juhoti.
To worship Mahadeya, homam karoti, hoshyam.
Homam karo.
Juhoti, Juhutah, like Juhvati. Hoshyati, haa. Bhavati uktavati ba, hoshyami iti. Gitanjali bhagini.
Mahadeya,
aham. Oh, astu, astu. Haa, astu, astu, astu. Haa, haa. Idanim Gitanjali bhagini tatra pruch. अस्तु, अस्तु महोदय, बाधति महोदय, अग्रे करोतु महोदय. अस्तु, अग्रे पृच्छति. हा,
किं करोमि महोदय?
पृच्छ, पृच्छ धातुः प्रक्ष्यत इति रूपं दत्तमस्ति मध्यमपुरुषे बहुवचने.
प्रक्ष्यसि, प्रक्ष्यथः, प्रक्ष्यथ
इति. अस्तु, समीचीनं महोदय. अस्तु, वंशीसुधा भगिनि, तत्र वद् इति.
आं महोदय, वद् इति धातु वदति इति लट्लकारवचनमस्ति. प्रश्नपति धातु, अथवा वदिष्यति, वदिष्यतः, वदिष्यन्ति.
वदिष्यन्ति, समीचीनं. हा, शोभा भगिनि,
अत्र स्मृ धातु, धातुः स्मरिष्यामि, स्मरिष्यावः, स्मरिष्यामः.
हा, इति समीचीनं. हा, इदानीं गीतांजलि भगिनि, तत्र मुद् इति धातुः.
मुद् मोदिष्यते, मोदिष्येते, मोदिष्यन्ते.
हा, इति यत्र आसम् तत्र एव इदानीं पुनः आगतवन्तः. अस्तु इदानीं तत्र जुहोति
जुहोति द्वित्वं सर्वदा नास्ति महोदय
न न तृतीयगणे
जुहोति सर्वाणि रूपाणि द्वित्वं नास्ति
अस्तु 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 अहम् इदानीं भवत्याः भवती किं वक्तुम् इच्छति इति इदानीम् अवगच्छामि हा सत्यं भगिनि सत्यं
केवलं लट् तत्र स्पष्टं
न न न तादृशं तत्र सत्यं भगिनि तत्र लट् लकारे अहम् अष्टाध्यायी मध्ये पश्यामि तत्र लट् लकारे अपि लिट् लकारे किन्तु हा तत्र बहु हा केवलं केवलम् अत्र नास्ति हा किन्तु जुहोतु अस्ति अजुहोत् इति अस्ति जुहुता जुहुयात् इति अस्ति हा तत्र अस्ति किन्तु सर्वत्र नास्ति सत्यं भगिनि हा सत्यं भगिनि हा 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 किन्तु तत्र दशलकाराः सन्ति खलु भगिनि सर्वेषु लकारेषु द्वित्वं न दृश्यते इति भगिनी वक्तुम् इच्छति इति सः वक्तुम् इच्छति इति मन्ये सर्वेषु लकारेषु द्वित्वं न दृश्यते इति गणस्य विषयः नास्ति भगिनि तत्र जुहोतु तत्र हू धातुः अस्ति तत्र गणः अस्ति जुहोत्यादिगणः एव किन्तु तत्र यदि तत्र लुट् लकारः पश्यति चेत् तत्र होता इति भवति होता होतारौ इति भवति अथवा परस्मैपदी होष्यति इति अथवा तत्र हूयात् इति रूपम् अस्ति तत्र जुहु इति नास्ति खलु तत्र जू इति नास्ति तत्र केवलं हकारः एव अस्ति अतः तत्र सर्वत्र न दृश्यते इति भवती वक्तुम् इच्छति इति मन्ये सत्यं गीताञ्जलि भगिनि तत्र सर्वेषु लकारेषु द्वित्वं न दृश्यते अतः यदि अन्यत् तत्र एकं लकार एके लकारे द्वित्वं नास्ति इति दृष्ट्वा वयं न वक्तुं शक्नुमः अन्येषु लकारेषु द्वित्वम् अस्ति न वा इति
महोदय एकः प्रश्नः सन्देहः तत्र जुहोत्यादिगणे जुहोति मूलरूपं हकार एव अस्ति न महोदय हुकार एव अनन्तरं जकारः भवति
तत्र द्वित्वं भवति इति
तत्र ज अस्ति चेदपि द्वित्वं नास्ति वा पूर्वं
जकारः एव द्वित्वम् अस्ति भगिनि तत्र जकारः हकारस्य द्वित्वं सूचयति तत्र जः इति भवति तत्र पाणिनेः सूत्रैः तद् भवति तत्र किमपि तत्र जुहोत्यादिगणे अनेकाः सन्ति तादृश तत्र बहु किमपि अस्ति भगिनि तस्मिन्
किञ्चित् भिन्नः अस्ति ददाति बिभेति तत्र वयं द्रष्टुं शक्नुमः किन्तु जहाति तत्र भिन्नरूपं दृश्यते
बिभेति अपि द्वित्वं भगिनी न
अल्पमहाप्राण किन्तु क्षम्यतां महोदय भवान् किमपि
अहं तद् अस्तु तत्र अहं केवलं तत्र धा धातुः अपि जुहोत्यादिगणे एव अस्ति भगिनि तदपि किन्तु तत्र द्वित्वं सुलभतया दृश्यते किन्तु तत्र जुहोति इति तदपि द्वित्वमेव अस्ति किन्तु तत्र तत्र हकारस्य द्वित्वम् इति न दृश्यते किन्तु द्वित्वम् अस्ति तत्र.
आम् महोदय.
हा तत्र एतावत् वयं एतस्य किमपि न उक्तवन्तः तत्र किं धातोः गणाः सन्ति तत्र दशगणाः सन्ति तत्र केव सामान्यरूपम् इत्युक्ते तत्र प्रथमगण अथवा षष्ठगण इति मन्ये तत्र हा तत्र प्रथमगणे तु साधारणसामान्यरूपं यत्र अत्र पुटसङ्ख्या 112 मध्ये यत्र स्मः तत्र कानिचन विशेषक्रियापदानि इति दत्तमस्ति खलु तानि तत्र सर्वाणि क्रियापदानि तत्तु तत्र क्रियापदानि यानि दत्तानि तानि सर्वाणि तत्र किं प्रथमगणे ते न सन्ति अन्येषु गणेषु सन्ति तत्र किन्तु वयम् एतावत् गणस्य विषयः न उक्तवन्तः किन्तु प्रायशः समयः इदानीं नास्ति प्रायशः अग्रिममासे एकवारं वदामि तत् गणः इत्युक्ते किम् इति किन्तु ये व्याकरणवर्गं गच्छन्ति तत्र तु एतत् सर्वं भवति एव किन्तु लघुरूपेण एकवारम् अहं वक्तुं प्रयत्नं करोमि अग्रिमवर्गे अथवा तस्य अनन्तरं एकवारं तत्र किं किम् इति नो चेत् किमर्थम् अत्र अनेकानि विशेषरूपाणि दत्तानि इति तत्र मनसि भवति किन्तु तत्र किं केवलं दशरूपाणि एव सन्ति दशापि नास्ति न्यूनमेव अस्ति किन्तु किं किं तत्र भेदः कः इति रूपस्य भेदः कस्मात् कारणात् भवति इत्युक्ते तत्र भिन्नेषु गणेषु सन्ति इति कृत्वा तत्र रूपभेदः भवति लकारेषु तत्र ददाति इति रूपं किमर्थं तादृशमस्ति अथवा दास्यति इति किमर्थम् अस्ति किमर्थं तत्र पठिष्यति इति नास्ति किन्तु दास्यति इति किमर्थम् अस्ति चेत् एकं कारणमस्ति तत्र दा धातुः जुहोत्यादिगणे अस्ति किन्तु पठति अथवा चलति इति अन्ये गणे अस्ति इति किन्तु तद् अग्रिमवर्गे न तस्य प्रायशः तस्य अनन्तरं लघुरूपेण वदामि तत्र एकवारं अस्तु तर्हि हा अस्तु तर्हि तत्र किञ्चित् परिचयः हा किञ्चित् अभ्यासं कृतवन्तः अद्य तत्र परस्मैपदी धातूनाम् आत्मनेपदी धातूनां लृट् लकारस्य रूपस्य विषये तत्र अग्रिमवर्गे अपि तदेव भवति तत्र हा तदनन्तरं कथा अपि अस्ति तत्र हा तस्मिन् समये अहम् अत्र किञ्चित् गणस्य विषये वदामि तत्र स्वरूपमहोदयेन एकं करपत्रं तत्र संस्कृतव्याकरणम् इति सर्वे जानन्ति खलु जालपुटे तत्र यदि पश्यन्ति तत्र गणस्य विषये परिचयः अपि अस्ति तद् प्रायशः एकवारं तद् जालपुटमेव स्वीकृत्य एकवारं पठितुं शक्नुमः तत्र किं किं गणाः के तत्र प्रत्ययः तत्र विकरण प्रत्ययः किमपि अस्ति तत् सर्वं एकवारं पश्यामः तदनन्तरं विशेषरूपम् इत्युक्ते किम् इति सुलभतया अवगमनं भवति अस्तु तर्हि अन्यः प्रश्नः तत्र स्थाप् इति किम् इति एकः प्रश्नः अस्ति तद् अग्रिमवर्गे सर्वे अपि अन्वेषणं कुर्वन्तु अहमपि करोमि अग्रिमवर्गे तस्मिन् विषये चर्चां कुर्मः स्था अपि स्थाप् अपि तिष्ठति इति किम् अस्ति इति अस्तु अस्तु अन्यप्रश्नः अस्ति वा
आम् महोदय अत्र इश् एषिष्यति इति अस्ति वर्तमानकाले किं रूपं किं भवति
इच्छति इति मन्ये भगिनि
इच्छति वा
तत्र कुत्र तत्र वन्
प्रथमपङ्क्त्याम् अस्ति
प्रथम तत्र
इश् एषिष्यति इति दत्तमस्ति
इश् इति हा
अनन्तरं भुज् भुज् भोक्ष्यते इति अस्ति वर्तमानकाले
इष्यति महोदय लट् इष्यति इति दत्तम्
इष्यति इष्यति अस्तु इच्छति न इष्यति अस्तु
इष्यति वा इष्यति इत्युक्ते
किं दत्तमस्ति भगिनि
गतौ
गच्छति गच्छति इति अर्थे
ओ गच्छति वा ओके
गते गतौ इति
अत्र भुज् भोक्ष्यते भोक्ष्यते इति अस्ति तस्य वर्तमानकाल
हा भुज्
लास्ट् लैन्
हा भुज्
भुङ्क्ते वा भुञ्जते वा भुङ्क्ते
हा एकवारं भुङ् किं दत्तमस्ति भगिनि तत्र भोक्ष्यते खलु
भोक्ष्यते
तदस्ति भगिनि तत्र भुनक्ति भुङ्क्तः भुञ्जन्ति हा भुनक्ति इति लट्लकार किञ्चित् विशेषरूपम् अस्ति भगिनि विशेषरूपम् अस्ति हा तद् तत् उभयपदी धातुः अस्ति भगिनि तत्र भुङ्क्ते इति अपि लट्लकाररूपम् अस्ति किन्तु तत्र तत्र तस्य
भुङ्क्ते भुञ्जाते भुञ्जन्ते इति अस्ति वा महोदय
तत्र भुज् इति धातुद्वयम् अस्ति इति मन्ये भगिनि एतदस्ति रुदादिगणे 07.0017 अत्र सर्वे एतत् अहं वदामि तत्र अष्टाध्यायी डाट् काम् बहु समीचीनम् अस्ति तत्र गत्वा केवलं मूलधातु तत्र उपसर्गरहितधातु तत् स्थापयन्ति चेत् तत्र रूपं द्रष्टुं शक्नुवन्ति तत्र भुज् इति धातु अहं तत्र लिखितवान् तत्र भुज् इति धातु तत्र भुजति इति एकम् अस्ति तुधादिगणे 6.06 इति अन्यत् अस्ति भुज् भुनक्ति भुङ्क्ते इति 7.07 इति रुदादिगणे अष्टाध्यायी डाट् काम् अष्टाध्यायी डाट् काम् तत्र धातु इति सेलेक्ट् करणीयमस्ति
गणः इत्युक्ते लकारः एव वा
न गणः इत्युक्ते तत्र धातोः दश गणाः सन्ति 10 groups रूपं यस्मिन् गणे अस्ति तद् दृष्ट्वा यदि धातुद्वयम् अस्ति धातुद्वयमपि एकस्मिन् एव गणे स्तः अस्ति चेत् रूपसमानः भवति रूपं समानं भवति यदि भिन्नेषु गणेषु भवन्ति तदा रूपभेदः भवति किन्तु अत्र अत्र सप्तगणे रुधादिगणे इति रुद् इति धातोः तस्मिन्नेव गणे एतदपि अस्ति अतः तत्र शृण्वन्ति वा तत्र अत्र अहं पश्यामि तत्र लेफ्ट् द फ्री कान्फरेन्स् काल् अपि किम् अभवत् इति अस्तु 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 अतः तत्र रुदादिगणे अस्ति तत्र रूपं द्रष्टुं शक्नुमः तत्र किं परस्मैपदीरूपमपि अस्ति आत्मनेपदी रूपम् अपि अस्ति उभयपदी धातुः अस्ति इति सकर्मकः अपि तत्र बहु किमपि दत्तमस्ति कस्मिन् गणे उभयपदी न वा इति कर्मक अथवा अकर्मकधातु बहु किमपि दत्तमस्ति धातोः विषये अस्तु
अस्मिन् स्तरे अस्ति वा गणः विषये
किं भगिनि
अस्मिन् स्तरे अस्ति वा महोदय गणनं विषये?
गणनं नास्ति नास्ति भगिनि, तत्र व्याकरणे व्याकरणे भवति. अहं लघुरूपेण अग्रिमवर्गे न तस्य अनन्तरम् एकवारं वदामि, किन्तु यदि भवती इच्छति भवती एतत् कर्तुं शक्नोति. तत्र संस्कृतव्याकरणम् इति यद् जालपुटम् अस्ति तत्र स्वरूप महोदयस्य
संस्कृतव्याकरणम्
इति गूगल् सैट् इति गूगल् सैट् अस्ति. अत्र एव सर्व तत्र गृहपाठः
मया गन्तव्यम्.
अस्तु अस्तु, नमस्कारः महोदय. नमस्कारः महोदय, अस्तु
धन्यवादः.
हा नमस्कारः शुभभगिनी. तत्र यत् गूगल् सैट् अस्ति तत्रैव भाषावर्गः सर्वं वर्गस्य मुद्रणं सर्वं तत्र यदि तस्मिन् जालपुटे एव अस्ति. तत्र पश्यतु, तत्र धातुगणाः इति तत्र धातुगणः धातुगणपरिचय इति नम्बर् वन्.
आं महोदय.
हा तत्र 01 धातुगणपरिचयः, धातुगणाः, धातुगणपरिचयः, गुणः, धातुगुणाभ्यासः इति अस्ति. तद् बहु समीचीनमस्ति भगिनि. तद् एतद् समापयित्वा तत् कर्तुं शक्नुमः, बहु समीचीनं भवति.
महोदय, सैट् एकवारं प्रेषयतु महोदय, मास्टर् महोदयस्य.
तत् संस्कृतव्याकरणं भगिनि, यत् न न भगिनि, केवलं संस्कृतव्याकरणम् इति यत् वय तत्र किं वर्गस्य भाषावर्गः इति अस्ति खलु, तस्मिन्नेव जालपुटे लेफ्ट् सैड् पश्यतु. तत्र
किं संख्या महोदय?
01
वन् इन्फर्मेशन्. इदानीमेव अहं देर् इस् वन् सैट् काल्ड् इन्फ्लेक्टेड् फार्म्, तत्र अहं स्थापयति तिष्ठति द्वयमपि लिखितवती. द्वयोः धातु स्था एव
किमस्ति जालपुटं किमस्ति भगिनि?
Something called inflected form. Howard Kyotoka.
Asto.
Inflected forms. That, what is it? Lexicon, Sanskrit lexicon, uni, kosh, K-O-E-L-N, something like that. You want, I'll forward the
Asto link. Asto, bhagini. Appreciate to. Tatra, ataha tatra kim vadanti tatra? Stha eva dhatu iti vadanti.
Stha iti dhatu asti. प्रथमगणः, तिष्ठति तिष्ठतः तिष्ठन्ति, तदनन्तरं स्था तदेव धातु, स्थापयति स्थापयतः स्थापयन्ति, तत्तु दशमगणस्य अस्ति.
स्था इति अस्ति प्रथमगणे अस्ति, तिष्ठति इति अपि अन्यत् अस्ति वा? स्था
अन्यत् अस्ति, मीनिङ्ग् अपि अन्यत्. ऐ कान्ट् मेक् औट्, ऐ डोण्ट् नो हौ टु यूस् दिस् सैट् वेरि वेल्.
दशमगणे अस्ति वा? दशमगणे अस्ति इति दत्तम् अस्ति वा?
एकनिमिषं, ऐ हव् टु वन्स् अगेन् पुट् स्थापयति का, वेट्, ऐ पुट् स्थापयति अगेन् नौ, रैट् नौ ऐ आम् तिष्ठति.
अत्र एकवारं रेकार्डिङ्ग् तत् स्थगनीयं, एकवारं.